अहं न शृणोमि. नमस्कारः.
नमस्कारः. अहं न शृणोमि.
नमस्कारः. अहं न शृणोमि.
We are waiting for Lakshmi Bhagini ji to join,
but it said recording has already started.
Kshamitam, mute madhye asmi. Sarvesham punah ekavaram swagatam. Aham प्रथमतया एकं श्लोकं वदामि. धृतिक्षमादमस्तेयं शौचमिन्द्रियनिग्रहः धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् इत्युक्ते अत्र धृतिः क्षमा दमस्तेयं शौचम् इन्द्रियनिग्रहः धीः विद्या सत्यम् अक्रोधः एतानि दशलक्षणानि धर्मलक्षणानि. यदा कदापि वयं धर्मः इति पदम् अस्माभिः श्रूयते, धर्मः इति पदं केवलं संस्कृतभाषायाम् एव अस्ति, अन्यासु भाषासु न दृश्यते. धर्मः इत्युक्ते किं, तस्य अर्थः कः? इति पश्यामश्चेत् अस्मिन् श्लोके आहत्य श्रुणोतु महोदय, आहत्य दशलक्षणानि, एतस्मिन् श्लोके आहत्य दशलक्षणानि कीर्तितानि. एतेषां दशलक्षणानां सङ्ग्रहणम् एव धर्मः. यस्मिन् एतानि दशलक्षणानि दृश्यन्ते सः सर्वदा धर्मम् आचरति इति अर्थः, यथा रामः. अत्र अस्मिन् श्लोके प्रथमं पदमस्ति धृतिः. श्लोकः किं वदति इत्युक्ते धर्मस्य परिरक्षणार्थं धृतेः आवश्यकता अस्ति. श्लोके कानिचन अन्यानि लक्षणानि अपि उक्तानि सन्ति. अन्ये के आगतवन्तः विलम्बेन, अधुना वदन्तु. पुनः वदतु, न श्रूयते महोदय, पुनः वदतु.
नमस्कारः. अहं कादम्बरी अस्मि.
उत्तमं भगिनि.
नमस्कारः भगिनि. अहं लक्ष्मीः.
उत्तमं.
नमस्कारः अस्मि भगिनि. दिस् इस् समीर हियर.
नमस्ते महोदय.
नमस्कारः भगिनी. अहं सुब्बाराव.
नमस्ते लक्ष्मी भगिनी. दिस् इस् राजीव हियर.
उत्तमं महोदय, स्वागतम्.
नमस्ते लक्ष्मी भगिनी. दिस् इस् उमाशंकर.
नमस्ते महोदय.
भगिनी, अहं शङ्करन्. अहं शङ्करन्.
अस्तु महोदय. अस्तु, अहं किं वदामि इत्युक्ते, आक्चुवलि ऐ मेड् सम् अनौन्स्मेण्ट्स् बिफोर्. ऐ वुड् लैक् टु मेक् अनौन्स्मेण्ट् वन्स् अगेन्. आल् आफ़् यू कम् अट्लीस्ट् 5 मिनिट्स् बिफोर् टु द क्लास्. ऐ एम् आलरेडि सेण्डिङ्ग् एन् ईमेल् वित् आल् द इन्स्ट्रक्षन्स् इन् सैड्. ऐ रिक्वेस्ट् आल् आफ़् यू टु रीड् द इन्स्ट्रक्षन्स् अण्ड् फालो द इन्स्ट्रक्षन्स्. ऐ वाण्ट् आल् आफ़् यू अट्लीस्ट् 5 मिनिट्स् बिफोर् द क्लास्. उत्तमम्. अनन्तरं अद्य वयं किं कुर्मः इत्युक्ते, गते सप्ताहे वयं किं कृतवन्तः, अत्र गते सप्ताहे वयं कानिचन वाक्यानि रचितवन्तः. अत्र गतसप्ताहद्वयमपि वयं संस्कृतभारत्याः करपत्रं पुरतः स्थापयित्वा तस्मात् कानिचन क्रियापदानि स्वीकृत्य कर्मपदम् अपि योजयित्वा कानिचन वाक्यानि रचितवन्तः. केवलं लघुवाक्यानि एव, लघुवाक्यरचनां कथं कुर्मः इति वयं किञ्चित् ज्ञातवन्तः, तथा किञ्चित् अभ्यासः अभवत्. अहं चिन्तयामि भवन्तः सर्वे अपि लट्लकारः इत्युक्ते किं, लोट्लकारः इत्युक्ते किम् इति भवन्तः जानन्ति इति अहं चिन्तयामि. परन्तु अत्र संस्कृतभारत्या निर्मितं करपत्रं पुरतः सर्वे स्थापयन्तु. तत्र अवशिष्टानि षट् पदानि सन्ति, तानि पदानि उपयुज्य अधुना वयं किञ्चित् इतोपि वाक्यरचनां कुर्मः. अत्र हस्मुख् महोदय, भवान् करोति वा? अत्र भवतः पार्श्वे संस्कृतभारत्या निर्मितं करोतु महोदय.
We can do the verbs from 31 to 36, right?
Aam mahodaya.
Okay. So, Balaha Roditi. Here, there is no karma. This is an akarmak verb, no? There is no karma in this.
Uttama. Uttama. Bhavan... षट् वाक्यानि रचयतु इत्युक्ते अत्र रोदिति, शक्नोति, आनयति, क्रीणाति, निन्दति, आह्वयति इति षट् पदानि सन्ति. एकम् एकं क्रियापदं स्वीकृत्य षट् वाक्यानि भवान् रचयतु. अधुना अभ्यासं तथा कुर्मः. विल् डू द एक्ससैज् इन् दट् वे. भवान् एव
मतलब शुड आई यूज ऑल द प्रोनाउंस एषः रोदिति, सः रोदिति एटसेट्रा. ओके
करोतु.
सो ओके आई जस्ट सी व्हाट आर दोस प्रोनाउंस. सः एषः देन बालः, बाला मतलब बालः रोदिति, बाला रोदिति, व्हाट आर द अदर प्रोनाउंस आई एम फॉरगेटिंग नाउ. एषः, सः,
एषः, एषा,
सा, एषा, सा, ओके,
तत्, एतत्,
तत्, एतत्. आई जस्ट वांटेड टू भवान,
भवान, भवति,
भवति. ओके, दिस तत् एन एतत्, वी कांट से तत् रोदिति और एतत् रोदिति, नो, बिकॉज़ इट इज अ नपुंसक लिंग. सो
नाम महोदय, तत् अपि कर्तुं शक्नुमः.
आई सी. ओके. सो एषः रोदिति, सः रोदिति, एषा रोदिति, सा रोदिति, तत् रोदिति, एतत् रोदिति, भवान् रोदिति, भवती रोदिति.
उत्तमम्. अनन्तरम् अहं यथा भवान् उक्तवान् रोदिति इति पदम् अकर्मकक्रियापदम्, अतः कर्मपदं न स्वीकरोति. इत्युक्ते अहं कानिचन पदानि ददामि, यथा पुत्रः. वदतु, वाक्यं वदतु. पुत्रः,
पुत्रः रोदिति.
शिशुः,
शिशुः रोदिति.
बालिका,
बालिका रोदिति.
माता,
माता रोदिति.
पुत्री,
पुत्री रोदिति.
अहम्,
ऐ डोंट नो द फर्स्ट Uttama Purusa form of this, but should it be Rodimi? No.
Uttama Mahodaya. Uttama Mahodaya. Samyak. Okay. Samyak. Punha vadatu.
Rodimi. So, aham Rodimi. Aham Rodimi.
Uttama. Atra, prashnavachaka vakyam kim bhavati chet, putraha roditi iti vakyam asti. Putraha roditi tasya krute प्रश्नवाचकवाक्यं वदामः चेत् कः रोदति, कः कः रोदिति,
कः रोदिति, कः रोदिति, हु इस् वीपिङ्ग्, या, कः रोदिति और पुत्रः रोदिति किं, पुत्रः रोदिति किं, दट् आल्सो इज़ आन्सर.
उत्तमम्, उत्तमम्. कः रोदिति, कः रोदिति इत्युक्ते उत्तरं किं भवति, शिशुः रोदिति.
शिशुः रोदिति यस्
परन्तु अत्र किं रोदिति इति न वदामः किं
ओके
केवलं किमर्थं रोदिति
ओके ओके
किमर्थं रोदिति यथा भवान् उक्तवान् रोदिति इति क्रियापदम् अकर्मकक्रियापदम् उत्तमम् अनन्तरं द्वितीयमपि करोतु महोदय शक्नोति
एषः शक्नोति सः शक्नोति एषा शक्नोति सा शक्नोति तत् शक्नोति एतत् शक्नोति भवान् शक्नोति भवती शक्नोति
अत्र पश्यतु महोदय तथा न वदामः किमर्थं चेत् अत्र शक्नोति इति पदं केवलं तथा न वदामः अत्र सः कर्तुं शक्नोति कर्तुम् इति पदं योजयित्वा एव
ओके ओके सः कर्तुं शक्नोति एषः
अत्र महोदय सः कर्तुं शक्नोति भवान् जानाति सः कर्तुं शक्नोति सा कर्तुं शक्नोति परन्तु किं कर्तुं शक्नोति इति प्रश्नं पृच्छामश्चेत् तत्र सः
कार्यं कर्तुं शक्नोति सः कार्यं कर्तुं शक्नोति
उत्तमम् अन्यानि वाक्यानि वदतु
एषा गृहकार्यं कर्तुं शक्नोति
उत्तमम् अनन्तरं एषा पठितुं शक्नोति
एषा पुस्तकं पठितुं शक्नोति
उत्तमं सा खादितुं शक्नोति तथा करोतु खादति इति उपयुज्य
सा फलं खादितुं शक्नोति
उत्तमं तत्र सः कार्यं कर्तुं शक्नोति सः पठितुं शक्नोति सः अन्नं खादितुं शक्नोति तथा एव भवति केवलं सः शक्नोति इति न वदामः शक्नोति इत्युक्ते आङ्ग्लभाषायां वदतु महोदय शक्नोति इत्युक्ते किं भवान् अवगतवान् वा
तावदेव
अनन्तरं तृतीयं क्रियापदमस्ति अत्र अत्र त्रयस्त्रिंशत् इत्युक्ते किं महोदय त्रयस्त्रिंशत् संख्यायाः नाम
सः पेटिकाम् आनयति सा पुस्तकम् आनयति भवान् any other karma you can give me some object
महोदय अत्र बालकः दण्डः
बालकः दण्डम् आनयति
बालिका चषकः
बालिका चषकम् आनयति
बालकः पुस्तकम्
आनयति अहं धनम् आनयामि
उत्तमं यदि भवान् जानाति चेत्
वयं धनम् ऐ डोण्ट् नो द सेकेण्ड् फार्म् दि ड्युवल् केस्
अत्र वयं अत्र शृणोतु महोदय वयं धनम् आनयामः
उत्तमं
महिला जलं
महिला जलम् आनयति.
उत्तमम्. अनन्तरं वृद्धः घटः.
वृद्धः घटम् आनयति.
उत्तमम्. अनन्तरं तरुणः तण्डुलः.
तरुणः तण्डुलम् आनयति.
तण्डुलः इत्युक्ते किं भवान् जानाति वा?
तण्डुलम् इस् द बिटल् लीव्स्.
तण्डुलः इत्युक्ते रैस्.
ओ रैस्, तण्डुल इस् रैस्. तण्डुल इस् रैस्.
अनन्तरम् अहं यानपेटिका.
अहं यानपेटिका आनयामि.
पुनः करोतु, किञ्चित् समीकरोतु.
अहं यानपेटिकां यानपेटिकाम् आनयामि.
उत्तमम्. इत्युक्ते अत्र कर्तृपदमस्ति, अहं कर्तृपदं. कः आनयति? अहम् आनयामि. किम् आनयति? यानपेटिका.
यस्.
अत्र अतः आनयामि इति पदं सकर्मकक्रियापदं.
करेक्ट्.
उत्तमं महोदय, धन्यवादः. अनन्तरं सुबरु महोदय, सुबरु महोदय, भवान् करोति वा अनन्तरम्?
आं
करोतु महोदय.
क्रीणाति.
वाक्यानि वदतु.
एषः क्रीणाति. सः क्रीणाति. एषा क्रीणाति. सा क्रीणाति. एतत् क्रीणाति. तत् क्रीणाति. भवान् क्रीणाति. भवती क्रीणाति.
उत्तमं. तावदेव. अनन्तरम् अहं कानिचन पदानि ददामि, तेषाम् उपयोगं कृत्वा कर्मपदम् अपि योजयित्वा उत्तमानि वाक्यानि रचयतु. अत्र अहं ददामि, बालकः लेखनी.
बालकः लेखनीं क्रीणाति.
क्रीणाति इत्युक्ते किं?
बैयिङ्ग्.
उत्तमं. तावदेव. बालिका अङ्कनी.
बालिका अङ्कनीं क्रीणाति.
बालः फलं. बालः फलं.
बालः फलं क्रीणाति.
उत्तमं. महिला चालनी.
महिला चालनीं क्रीणाति.
अहं
वाट् इस् द मीनिङ्ग् आफ् चालनी?
चालनी इत्युक्ते सीम्. सीम्. अत्र
केन् यु प्लीस् रिपीट् चालनी.
अत्र किञ्चित् ध्वनिः अस्ति अथवा अतः किञ्चित् म्यूट् करोमि, कृपया म्यूट् कुर्वन्तु. अत्र चालनी इत्युक्ते सीव्. सीव्. अनन्तरं युतकं वदतु महोदय. बालकः युतकं.
बालकः युतकं क्रीणाति.
अहं व्यजनम्.
अहं व्यजनं क्रीणामि.
उत्तमम्. अनन्तरं महिला मोदकम्.
महिला मोदकं क्रीणाति.
वैद्यः औषधम्.
वैद्यः औषधं क्रीणाति.
उत्तमम्. अहं दूरदर्शनम्.
अहं दूरदर्शनं क्रीणामि.
उत्तमं. सा महिला शाटिका.
सा महिला शाटिकां क्रीणाति.
उत्तमम्. अनन्तरं सः बालकः पुस्तकम्.
सः बालकः पुस्तकं क्रीणाति.
उत्तमं. प्रश्नवाचकवाक्यं वदतु महोदय. कः अत्र कः क्रीणाति? कः क्रीणाति इत्यस्य उत्तरं किं भवति?
सः कन्दुकं क्रीणाति.
सः कन्दुकं क्रीणाति इत्यस्मिन् वाक्ये कर्तृपदं किं?
सः.
क्रियापदं?
क्रीणाति.
कर्मपदं?
कन्दुकं.
कन्दुकः.
कन्दुकः.
उत्तमम्. अत्र क्रीणाति इति क्रियापदमपि सकर्मकक्रियापदम्. अनन्तरम् अग्रिमम् अग्रे पठतु. अग्रिमं क्रियापदं किमस्ति अत्र? वदतु महोदय.
सकर्मकक्रियापदं मीन्स् वाट्?
इट् विल् एक्सेप्ट् द आब्जेक्ट्. दट् मीन्स् इन् ए सेण्टेन्स् जनरली यु हेव् सब्जेक्ट् आब्जेक्ट् अण्ड् ए वर्ब्. कानिचन क्रियापदानि कर्मपदं न स्वीकुर्वन्ति. यथा पुस्तकम् अस्ति. अस्ति इति क्रियापदम् अस् धातुतः आगच्छति. अस् धातुः न कदापि कर्मपदं स्वीकरोति. तथा एव हस् धातुः. हस् धातुतः हसति इति क्रियापदम् आगच्छति. यथा हस्मुखमहोदय उक्तवान् रोदिति इति क्रियापदमपि अकर्मकक्रियापदं. कानिचन क्रियापदानि सकर्मकानि, कानिचन अकर्मकानि, अपि च कानिचन क्रियापदानि द्विकर्मकानि. इत्युक्ते तेषु कर्मपदद्वयं सम्भवति. तथा क्रियापदानां विभागः अस्ति. अवगतवान् वा महोदय? Did you understand? Atra, there are some verbs. They accept the object of the sentence. They accept karma padam. There are some verbs. They don't accept karma padam. There are certain other verbs. They accept two karma padam. Karma padam. Tadha. Dvikarmaka. Dvikarmaka vakyam. सकर्मकवाक्यम् अकर्मकवाक्यम् इति वदामः. अनन्तरम् अत्र सुबरमहोदय भवान् करोतु. अत्र अनन्तरं निन्दति इति क्रियापदमस्ति. तत् स्वीकृत्य वदतु महोदय.
एषः निन्दति, सः निन्दति, एषा निन्दति.
अत्र कः निन्दति? एषः निन्दति.
एषः निन्दति.
अहं पदं ददामि. माता माता शिशुः. वदतु वाक्यं. वदतु.
माता शिशुः. माता शिशुः निन्दति.
पुनः समीकरोतु, किञ्चित् समीकरोतु. अत्र शिशुः इति पदं कर्मपदं.
शिशुः.
कः करोति?
शिशु. शिशु.
अत्र पश्यतु महोदय,
द्वितीयविभक्ति
शिशुं. शिशुं.
शिशुं
करोतु.
माता शिशुं निन्दति.
उत्तमं. पिता बालकः.
केन् यु प्लीज़ रिपीट्?
पिता बालकः.
पिता बालकः.
अत्र पश्यतु, अत्र पश्यतु. पिता निन्दति. कः निन्दति? पिता निन्दति. कं निन्दति? कं निन्दति?
बालकः.
बालकं निन्दति.
बालकम्.
उत्तमम्.
अनन्तरं बालकं निन्दति.
उत्तमम्. अध्यापकः शिष्यः. वदतु.
अध्यापकः शिष्यः. 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 शिष्यं निन्दति.
उत्तमं. पुनः करोतु.
अध्यापकः. अध्यापकः शिष्यं निन्दति.
उत्तमम्. अध्यापकः कं निन्दति? अध्यापकः शिष्यं निन्दति. अनन्तरम् अन्तिमं क्रियापदमस्ति आह्वयति. आह्वयति अपि भवानेव करोतु.
आह्वयति
इत्युक्ते किम्?
आह्वानं.
आह्वानं
करोति
उत्तमं करोतु
ओके आह्वयति एषः आह्वयति सः आह्वयति ओके भवान् आह्वयति भवती आह्वयति
भवान् जानाति एव एतानि वाक्यानि परन्तु नूतनतया नूतनं वाक्यं रचयतु इत्युक्ते किमपि अन्यं कर्तृपदम् उपयुज्य अपि च कर्मपदमपि योजयित्वा वदतु नूतनानि वाक्यानि भवन्तः जानन्ति एव एषः एषा एतानि अष्टपदानि सर्वनामपदानि अपि च प्रथमाविभक्तौ सन्ति अपि च एतानि सर्वाणि अपि प्रथमपुरुषे एकवचने सन्ति नूतनं वाक्यं रचयतु
शिष्यः अध्यापकम् अध्यापकं गृहम् आह्वयति
उत्तमम् उत्तमम् अनन्तरम् अत्र अहं वाक्यं ददामि पदानि कानिचन पदानि ददामि भवान् केवलं वाक्यरचनां करोतु अध्यापिका बालिका
अध्यापिका बालिकां गृहम् आह्वयति
उत्तमं बालिका अग्रजा
बालिका अग्रजा विद्यालयम् आह्वयति
पुनः किञ्चित् समीकरोतु अत्र बालिका
बालिका अग्रजाम् अग्रजां विद्यालयम् आह्वयति
उत्तमम् अनन्तरम् अग्रजा अनुजा
अग्रजा अनुजां क्रीडास्थले क्रीडास्थलम् आह्वयति
उत्तमं यत् वाक्यं भवान् उक्तवान् तस्मिन् वाक्ये कर्मपदद्वयमस्ति अत्र पुनः वदतु तदेव वाक्यं वदतु एकवारम् अहं वदामि किञ्चित् विवरणं करोमि तदेव वाक्यं वदतु
अग्रजा अनुजां क्रीडास्थलम् आह्वयति
उत्तमम् अग्रजा इति पदं किं वदतु
अग्रजा कर्तृपदम्
उत्तमम् अनुजा अनुजाम् इति भवति तदपि
अनुजां कर्मपदम्
उत्तमं गृहं विद्यालयं भवान् उक्तवान् विद्यालयः विद्यालयम् इति उक्तवान् तत् किं
विद्यालयं कर्मपदम्
उत्तमम् इत्युक्ते तत्र तस्मिन् वाक्ये कर्मपदद्वयमस्ति अनन्तरं क्रियापदं किं
क्रियापदम् आह्वयति
उत्तमम् इत्युक्ते भवान् द्विकर्मकवाक्यं रचितवान् इत्युक्ते एतत् क्रियापदं कर्मपदद्वयं स्वीकरोति उत्तमं महोदय धन्यवादः अनन्तरं उत्तमम् अनन्तरं समीर् महोदय भवान् करोति वा अधुना वयं किं कुर्मः इत्युक्ते अधुना वयं कुर्मः इत्युक्ते वदतु
महोदय डिफ़रेन्स् बिट्वीन् आमन्त्रण अण्ड् आह्वयति
आमन्त्रणं करोति आह्वयति किञ्चित् समानमेव
ओके
समानमेव अर्थः समानः एव अहं चिन्तयामि आह्वानं करोति यदि आह्वानं करोति आमन्त्रणं करोति अर्थः समानः एव किञ्चिदेव भेदः आह्वयति अत्र पश्यतु महोदय आह्वयति इति क्रियापदमस्ति तस्य ल्यूट् रूपम् एव आह्वानं तथा एव आमन्त्रयति इति इत्यस्य ल्यूट् रूपम् आमन्त्रणम् आमन्त्रणं करोति अथवा आह्वानं करोति अर्थः समानः इदानीं भवान् किं करोति इत्युक्ते अहं कानिचन पदानि ददामि लोट्लकारे इदानीं पर्यन्तं भवन्तः सर्वे अपि लट्लकारे लट्लकारः इत्युक्ते वर्तमानकालः प्रेसेण्टेन्स् वर्तमानकाले वाक्यानि रचितवन्तः. इदानीं वयं लोट्लकारे कानिचन वाक्यानि रचयामः. अत्र महोदय अहं पदं ददामि, भवान् एकं वाक्यं वदतु. सन्मार्गः अनुसरति उपयुज्य वाक्यं वदतु.
बालकः सन्मार्ग अनुसरति.
किञ्चित् समीकरोतु.
बालकः सन्मार्ग अनुसरयति.
अत्र कः करोति, किञ्चित् समीकरोतु महोदय. किमर्थं चेत् अत्र बालकः इति किं पदं, किं कर्ता, बालकः कर्ता, सन्मार्गः, सन्मार्गः इति कर्मपदम्. यदि सन्मार्गः कर्मपदं भवति चेत् तस्य रूपं किं भवति? हौ इस् आक्चुवल्लि बालकः इस् सब्जेक्ट् आफ् द सेण्टेन्स्. Sanmargaha is the object of the sentence. Then when the same word is used as an object of the sentence, we are supposed to change its form. Kim bhavati? Balakaha sanmargam anusarati.
Anusarati, okay.
Balakaha sanmargam anusarati. Yadi lotlakare vadamaschit kim bhavati? लोट् लकारः इत्युक्ते भवान् जानाति वा? लोट् लकार इत्युक्ते किम्?
पास्ट् टेन्स्.
न महोदय, लोट् लकार इत्युक्ते अत्र अहं पूर्वमेव उक्तवती, लोट् लकारः इत्युक्ते यदि आज्ञार्थे वा प्रार्थनार्थे वा उपयोगं कुर्मः. इत्युक्ते वेन् यु रिक्वेस्ट् सम्बडि आर् वेन् यु कमाण्ड् आर् डिमाण्ड् सम्बडि टु डू सम्थिङ्ग् देन् यु आर् सपोस् टु यूस् लोट् लकारः. यथा भवान् पठतु, भवान् शृणोतु, भवान् गच्छतु, यदा कदापि अहं तथा वदामि. अधुना एव अहम् उक्तवती, महोदय, समीर् महोदय, भवान् पठतु.
बालकः सन्मार्ग अनुसरयति, अनुसरयतु,
अनुसरतु, सन्मार्गः उत्तमम्. अनन्तरं सहयोगः, सहयोगः ददाति करोतु. सहयोगः इत्युक्ते किं जानाति वा?
सहयोग, हेल्प्फुल्.
सहयोगः इत्युक्ते कोऑपरेशन्. सहयोगः ददाति. लोट्लकारे रचयतु वाक्यानि.
बालकः बालकः सहयोगं ददातु.
उत्तमं. बालकः सहयोगं ददातु. अनन्तरं बालिका प्रकृतिः.
बालिका प्रकृतिः.
यदि भवान् इच्छति अहं क्रियापदमपि अहमेव वदामि. पश्यति करोतु. प्रकृतिः पश्यति.
प्रकृति पश्यति. प्रकृति प्रकृति इस् नेचर् रैट्.
अत्र प्रकृतिः इति पदं कर्मपदम्.
पश्यति, पश्यतु इस् आस्क्. बालिका प्रकृति प्रकृति वर्णं पश्यति.
अत्र पश्यतु, बालिका प्रकृतिं पश्यति.
बालिका प्रकृतिं, ओके, प्रकृतिं पश्यति, ओके, पश्यति.
लट्लकारे वाक्यमस्ति. अनन्तरं लोट्लकारे वदामश्चेत् प्रकृतिं पश्यतु.
पश्यतु
तथा एव
प्रकृतिं पश्यतु.
अनन्तरं संस्कृतं पठति, करोतु.
बालकः संस्कृतं पठतु.
उत्तमम्. अनन्तरं ध्येयं स्मरति.
ध्येयं, what is the other word?
स्मरति, स्मरति.
बालकं ध्येयं स्मरति.
बालकः ध्येयं स्मर, लट्लकारे वदामश्चेत् बालकः ध्येयं स्मरति. यदि लोट्लकारे वदामश्चेत् बालकः ध्येयं स्मरतु. अनन्तरम् अनन्तरं भारतं लसति, करोतु. लसति इत्युक्ते शैनिङ्ग्.
भारतदेश, भारतदेश, भारतदेश विज्ञान रसतु, इट्स साइंस इन साइंस. रसायनशास्त्र रसतु.
भारतदेशं वैज्ञानिकशास्त्रे
रसतु.
भारतदेशं लसतु तथा एव मनुकुलं जयतु. एतानि वाक्यानि लोट्लकारे सन्ति. यदि अत्र केवलम् अहं कर्मपदानि एव दत्तवती, कर्तृपदमपि योजयित्वा वयं वाक्यं रचयितुं शक्नुमः अत्र. तथा एव धन्यवादः महोदय. अनन्तरं लक्ष्मी भगिनी भवती करोति वा अन्यानि वाक्यानि? अहं परिश्रमः, परिश्रमः इत्युक्ते किं जानाति वा? परिश्रमः इत्युक्ते हार्ड् वर्क्. परिश्रमः इति पदम् उपयुज्य वदतु भगिनि. परिश्रमः इति पदं कर्मपदम्.
अहं परिश्रमं करोमि.
उत्तमं. जागरूकः, करोतु. जागरूकः इत्युक्ते जानाति वा?
अवेक्.
उत्तमं. करोतु. जागरूकः.
अहं जागरूकम्
अत्र पश्यतु भगिनी. यदि भवती वक्तुमिच्छति चेत् अत्र अहं जागरूका भवामि. किमर्थम्? अत्र पश्यतु, जागरूकः पुंलिङ्गे वदामश्चेत् जागरूकः इति वदामः. परन्तु यदि महिला वदति चेत् अहं जागरूका भवामि, तत्र कर्मपदं न भवति. यदि भवती लोट्लकारे वक्तुमिच्छति चेत् जागरूकः भवतु. जागरूकः भवतु, तत्र केवलम् अकर्मकवाक्यमेव रचयितुं शक्नुमः. अनन्तरं प्रवचनं करोतु.
अहं प्रवचनं शृणोमि.
उत्तमं. विजयः प्राप्नोति, तत्र क्रियापदं किं भवति इत्युक्ते विजयः प्राप्नोति, करोतु.
बालकः क्रीडां विजयः प्राप्नोति.
पुनः वदतु वाक्यं किञ्चित् समीकृत्य.
बालकः क्रीडां
प्राप्नोति, क्रियापदं प्राप्नोति.
बालकः क्रीडां विजयं प्राप्नोति.
अत्र कादम्बरी भगिनी भवती किञ्चित् समीकरोति वा?
प्रयत्नं करोमि.
करोतु. बालकः, तदेव वाक्यं.
बालकः
पाठं पठति.
बालकः पाठं पठति. परन्तु अत्र लक्ष्मीभगिन्या उक्तं वाक्यमस्ति. अत्र लक्ष्मीभगिनी किम् उक्तवती? बालकः. अत्र पश्यतु लक्ष्मीभगिनी, बालकः क्रीडायां विजयं प्राप्नोति. क्रीडायां विजयं प्राप्नोति. यदि लोट् लकारे वक्तुमिच्छति चेत् वदतु. बालकः
क्रीडायां विजयं प्राप्नोतु.
उत्तमं. बालकः क्रीडायां विजयं प्राप्नोतु. अनन्तरं शक्तिः सम्पादयति. करोतु वाक्यम्. अहमेव दत्तवती कर्मपदम् अपि च क्रियापदं. चिन्तनस्य आवश्यकता एव नास्ति. करोतु. शक्तिः सम्पा करोतु.
शक्तिः
सम्पादयति.
शक्तिः सम्पादयतु.
कर्तृपदमपि योजयतु भगिनि. बालकः किमपि
बालकः शक्तिः
शक्तिः सम्पादयति. अत्र
बालकः शक्तिः सम्पादयतु.
अत्र शक्तिः इति सद्यति अविभक्तरूपं किम्?
कर्म.
शक्तिः इति पदं तत्र कर्मपदम्. अतः बालकः शक्तिं सम्पादयति लट्लकारे. लोट्लकारे बालकः बालकः शक्तिं सम्पादयतु. अनन्तरं दुर्गुणः दुर्गुणः त्यजति. करोतु.
दुर्गुणः त्यजतु. बालकः दुर्गुणः त्यजतु.
अत्र पुनः पुनः तदेव दोषः कृतवती भवान् भवति.
बालकः दुर्गुणं त्यजतु.
उत्तमं. लट्लकारे वदतु तदेव वाक्यं.
बालकः दुर्गुणं त्यजति.
उत्तमं. लक्ष्यं निर्माति. लक्ष्यं जानाति वा? लक्ष्यम् इत्युक्ते
गोल्.
गोल् करोतु.
बालकः लक्ष्यं
निर्माति. लोट्लकारे
निर्मातु.
उत्तमं. पुनः वाक्यं.
बालकः
लक्ष्यं
निर्मातु.
बालकः लक्ष्यं निर्मातु. अनन्तरं पराक्रमः साधयति. करोतु. बालकः
पराक्रमं
क्रियापदं किम्? अत्र केवलं समयः नास्ति, अतः एव अहं पदानि दत्तवती. परन्तु करोतु भगिनी. साधयति.
बालकः
पराक्रमं साधयति. लोट्लकारे वदतु तदेव वाक्यं.
बालकः पराक्रमं साधयतु.
उत्तमं. चित्रं प्रदर्शयति.
चित्रं प्रदर्शयतु. बालिका चित्रं प्रदर्शयतु.
उत्तमम्. अनन्तरं नूतनं सृजति. सृजति इत्युक्ते जानाति वा?
नो, ऐ डोंट् नो दिस्.
कः वदति सृजति इत्युक्ते किं
क्रिया
जानाति उत्तमं महोदय भगिनि अवगतवती वा क्रियेट् सृजति नूतनं सृजति वाक्यं रचयतु
बालकः नूतनं चित्रं सृजयति
सृजति
सृजति
सृजति लोट् लकारे वदतु
बालिका नूतनं चित्रं सृजयति
सृजति सृजतु सृजतु लोट् लकारे सृजतु अहं चिन्तयामि भवती जानाति एव तयोर्मध्ये भेदः लट् लकार इत्युक्ते किं लोट् लकार इत्युक्ते भवती यज्जानाति तदेव वदतु इफ् यु अण्डर्स्टुड् वाट् इस् द डिफ्रेन्स् बिट्वीन् लोट् लकार अण्ड् लट् लकार ऐ एम् अस्यूमिङ्ग् दट् यु अण्डर्स्टुड् द डिफ्रेन्स् वाट् एवर् यु अण्डर्स्टुड् वदतु भगिनि
वन् इस् टु कमाण्ड् आर् टु टेल् देम् टु डू अण्ड् अदर् इस्
अदर् वन्
The lot is for that, and the lot is for that. The lot is just doing it.
Bhavati viparite kramena uktavati bhagini. Atra lot lakare, lot lakara hichyate, agnyarthe adhva prarthanarthe. Lat lakara hichyate, kevalam samanya vartamana kalaha.
Okay, yeah, I understand.
Got it. Uttamam bhagini. Anantaram, atra, adhuna vayam kim kurmaha ichyukte atra, chaturdashe pute atra ekam grahapatha rupena aham kinchit grahapatham dattavati. Atra, aham chintayami chaturdashe pute ekam chitram asti, vastrapanah. Bhavantah kratavantah va grahapatham. गृहपाठरूपेण किं दत्तवती अहम्
अहं कृतवती
भवती कृतवती वा करोतु भगिनी कादम्बरी भगिनी करोति अधुना अत्र अस्मिन् पुटे अभ्यासपुस्तकं सर्वे अभ्यासपुस्तकं पश्यन्तु यदि किञ्चित् बहु किमपि ध्वनिः अस्ति चेत् अहं म्यूट् करोमि भवन्तः किमपि वक्तुमिच्छन्ति चेत् स्टार् 6 नोदयित्वा अन्म्यूट् कुर्वन्तु कृपया केवलं ध्वनिः अस्ति तदर्थमेव अहं म्यूट् करोमि भवन्तः किमपि वक्तुमिच्छन्ति चेत् अन्म्यूट् कृत्वा वदन्तु कादम्बरी भगिनी भवती करोतु अत्र अस्मिन् पुटे अभ्यासपुस्तके तत्र सूचना का भगिनी पुटस्य उपरि उपरितने भागे सूचना अस्ति रक्तवर्णैः लिखितं सूचना
पश्यतु चित्रस्य आधारेण एकं सम्भाषणं लिखतु
उत्तमम् अस्मिन् वाक्ये अत्र एकं पदमस्ति लोट् लकारे तत् किं भगिनि
भवन्तु
अत्र एतत् चित्रं पश्यतु अस्मिन् वाक्ये पश्यतु इति पदं लोट् लकारे अस्ति अनन्तरम् अन्यत् पदं किं लोट् लकारे अन्यं पदं किं
लिखतु
भवती वक्तुं शक्नोति वा एतत् इत्युक्ते किम् एतत् इति पदं भवती जानाति वा एतत् किं उत्तमं चित्रं चित्रं पिक्चर् चित्रमिति कर्मपदम् अस्मिन् वाक्ये अनन्तरं चित्रमिति पदस्य बहुवचनरूपं वदति वा
चित्राणि
उत्तमम् अनन्तरं चित्रस्य पदस्य विभक्तिः का
अहं न जानामि
कोऽपि वदति वा चित्रस्य वयं कृतवन्तः एव
कः वदति
उत्तमं षष्टिविभक्तिः अनन्तरम् अत्र आधारेण इति पदमस्ति भवती जानाति वा
अहं न जानामि
तृतीयाविभक्ते भक्तौ अस्ति, एकं सम्भाषणं लिखतु. उत्तमम्. इत्युक्ते अत्र अस्मिन् चित्रे किं दृश्यते भगिनी? अत्र अस्मिन् चित्रे के के सन्ति? Whom do you see भगिनि? भगिनि
विक्रेता,
अपि च
विक्रेता,
पतिः. उत्तमम्. इत्युक्ते अस्मिन् चित्रे पतिः, पत्नी, विक्रेता सन्ति. पतिः पत्नी, पश्यतु भगिनि, पतिः पत्नी द्वयोर्मिलित्वा दम्पतिः इति वदामः. इन्स्टेड् आफ् सेयिङ्ग् सेपरेट्लि पतिः पत्नी, वी केन् यूस् द वर्ड् दम्पतिः. द्वयोर्मिलित्वा दम्पतिः इति वदामः. वयं साधारणतया वस्त्रापणं गत्वा वस्त्राणां क्रयणं कुर्मः. क्रयणम् इत्युक्ते बैयिङ्ग्. वस्त्राणां क्रयणं कुर्मः. तथा एव अस्मिन् चित्रे अपि तत्र दम्पतिः आपणं गत्वा तत्र वस्त्राणि क्रेतुम् इच्छति. अस्मिन् सम्भाषणे मास्तु, आवश्यकं, पर्याप्तं, स्वीकरोतु, अपि च चत्वारि अन्यानि पदानि यथा शाटिका, चोलः, युतकम्, ऊरुकम् इति चत्वारि पदानि भवेयुः. दट् मीन्स् दट् कान्वर्सेशन् दट् यु क्रियेट् इस् सपोस् टु हेव् आल् दीस् एय्ट् वर्ड्स्. वाट् आर् दीस् एय्ट् वर्ड्स् भगिनि, वदतु पुनः.
शाटिका, चोलः, युतकम्, ऊरुकम्.
अनन्तरम् अन्यानि चत्वारि पदानि कानि?
आवश्यकं, पर्याप्तम्, अस्तु,
मास्तु. उत्तमं. मास्तु, स्वीकरोतु. अत्र प्रथमतया पत्नी, पत्नी तत्र रिक्तस्थानमस्ति. पत्नी विक्रेता, विक्रेता अस्ति. विक्रेतारं प्रति किं वदति? प्रथमं वाक्यं भवती करोतु. पत्नी विक्रेतारं प्रति किं वदति?
भोः, अत्र ईदृशवस्त्रम् अस्ति वा?
ईदृशवस्त्रम् अस्ति वा? उत्तमम्. उत्तमम्. अन्ये कोऽपि किं किं लिखितवन्तः? अन्ये कोऽपि वदन्ति वा अन्यत् वाक्यम्? ऐ थिङ्क् यु आर् यु हव् आल् आलरेडि कम्प्लीट्लि.
I just started that patni suprapatam mahodayah.
Uttamam.
Avam satikaya krinav.
Karat vadat mahodaya samyakta vadatu.
Yeah. I wasn't sure if the sentence is correct. Avam satikaya krinav.
Krinav.
Sorry, right?
Uttamam. तदेव. यदि कोऽपि अन्यानि वाक्यानि लिखति चेत् वदन्तु. अन्य कोऽपि किमपि?
नमस्कारः. नमस्कारः. शाटिकां दर्शयति वा?
उत्तमम्. उत्तमं. तदेव अहं पश्यन्ती अस्मि. इत्युक्ते अत्र साधारणतया यदि वयम् आपणं गच्छामश्चेत् तत्र वयं किं वदामः? प्रथमतया, भवतः आपणे उत्तमानि वस्त्राणि सन्ति वा? यदि नूतनानि उत्तमानि वस्त्राणि सन्ति चेत् दर्शयतु भोः. उत्तमाः शाटिकाः, उत्तमाः चोलाः, उत्तमानि यूरुकानि, ऊरुकानि, अपि च युतकानि सन्ति चेत् दर्शयतु भोः इति पत्नी वदति. सम्यक् वा? अनन्तरं तदा कादम्बरी भगिनी भवती एव करोतु. विक्रेता किं वदति?
आम् अस्तु, किन्तु
किन्तु वदतु.
दशरूपिकाणि.
उत्तमम्. कोऽपि अन्यं वाक्यं यस्य कस्यापि पार्श्वे अन्यं वाक्यमस्ति चेत् वदन्तु. If you have any other sentences for that line, I want you to fill the second sentence. तदा विक्रेता किं वदति? साधारणतया विक्रेता यदि पत्नी विक्रेतारं प्रति वदति भवतः आपणे नूतनानि वस्त्राणि सन्ति चेत् दर्शयतु भोः इति सा वदति. तदा विक्रेता किं वदति? साधारणतया सः किं वदति? मम आपणे सर्वाणि वस्त्राणि सन्ति, सर्वाणि वस्त्राणि उपलभ्यन्ते.
Which color do you want?
Which color?
Yes.
Oh, okay. Shatikayaha varnaha kaha.
Varnaha kaha. Okay.
And lochet saha sadharanati, sadharanati saha kim vadati chitte, bhavati kim kretum ichyati? Bhavan kim kretum ichyati? What do you want to buy? Kim darshayani? युवाभ्यां किं दर्शयानि? युवाभ्यां किं दर्शयानि इत्युक्ते फर् यू वाट् केन् ऐ शो युवाभ्याम् इति वदति विक्रेता. अनन्तरं तदा पतिः किं वदति? भगिनी वदतु.
आम् एतत् मास्तु, अहं सन्तोषेण एतत् क्रीणामि.
एतत् सन्तोषेण एतत् क्रीणामि. एतत् इत्युक्ते अत्र किम्? एतत् युतकं वा ऊरुकं वा?
शाटिका.
ओ, एषा शाटिका. एतां शाटिकां क्रीणामि.
अस्तु.
इत्युक्ते सा वदति, महिला वदति, एषा शाटिका मह्यम् अतीव रोचते. I like this saree. Esha etam shatikam. Esha shatika mahyam ativa rochite. Ataha etam shatikam prinami. Adhva etam shatikam kretum ichhami. Iti patni vadati. Apicha tadha patihi kim vadati?
तत् मास्तु, अहं सन्तोषेण एतत् शाटिका क्रीणामि.
तत् मास्तु, किमर्थं सः वदति तत् मास्तु इत्युक्ते यदि तत्र पतिः वदति, यदि तस्य पार्श्वे यथेष्टं धनमस्ति चेत् तत् क्रेतुं शक्नोति. यदि तस्य पार्श्वे यथेष्टं धनं नास्ति इत्युक्ते पर्याप्तं धनं नास्ति चेत् सः किं वदति? भोः एतत् मास्तु, अन्यं दर्शयतु. यदि पतिः किं वदति? न्यूनमूल्येन अन्यानि वस्त्राणि दर्शयतु भोः इति वदति. केन् यु शो मी द क्लोत्स् वित् लेस् प्रैस्? तस्य पार्श्वे पर्याप्तं धनमस्ति चेत् सः क्रीणाति, परन्तु यदि पर्याप्तं धनं नास्ति चेत् सः किं वदति? एतत् वस्त्रं मास्तु भोः, न्यूनमूल्येन अन्यं वस्त्रं दर्शयतु.
अस्तु.
उत्तमं. तथा पतिः वदति. तदा विक्रेता किं वदति?
पर्याप्तं वा?
तत्र तदा सः किं करोति, विक्रेता किं करोति इत्युक्ते तदा सः अन्यं वस्त्रं दर्शयति, अन्यानि वस्त्राणि दर्शयति इत्युक्ते अन्याः शाटिकाः, अन्यानि युतकानि, अपि च अन्यानि ऊरुकानि दर्शयति. भवती जानाति वा युतकम् इत्युक्ते किम्?
शर्ट्.
शर्ट्. ऊरुकम् इत्युक्ते
पेण्ट्.
पेण्ट्. उत्तमम्. उत्तमम्. अनन्तरं
चोलः.
कः वदति चोलः इत्युक्ते किं? कः जानाति?
ब्लौस्
कः उक्तवती लक्ष्मी भगिनी पुनः वदतु भगिनी
फ्राक् आर् ड्रेस् वेरि गौन्
न न अत्र चोलः इत्युक्ते ब्लौस् अत्र सः विक्रेता किं करोति अन्यानि वस्त्राणि दर्शयति परन्तु तदा पतिः किं वदति एतस्याः मूल्यं किं तस्याः मूल्यं किं करोतु शाटिकायाः मूल्यं किं
शाटिकायाः मूल्यं किं
तथा एव चोलः वदतु
एतत् चोलं
वाक्यं रचयतु भगिनी अहम् उक्तवती प्रथमं वाक्यम् एतस्याः शाटिकायाः मूल्यं किम् वाट् इस् द प्रैस् आफ् दिस् सारी अत्र कः वदति अत्र एतस्य चोलस्य मूल्यं किम्
एतस्य चोलस्य मूल्यः किम्
उत्तमम् एतस्य चोलस्य मूल्यं किं तथा एव युतकं तत्रापि एकं वाक्यं रचयतु
तस्याः मूल्यं किम्
अत्र परन्तु अत्र पश्यतु भगिनि तस्याः मूल्यं किम् इति वदामश्चेत् तस्याः इति पदं स्त्रीलिङ्गे अस्ति षष्ठीविभक्तौ परन्तु अत्र अहं वदामि युतकम् अहं युतकम् उद्दिश्य पृच्छामि युतकं दर्शयित्वा सः किं पृच्छति एतस्य युतकस्य मूल्यं किम्
अस्तु
अनन्तरम् ऊरुकमपि वदतु ऊरुकं दर्शयित्वा अथवा दृष्ट्वा पत्नी किं पृच्छति
एतत् ऊरुकम् एतस्य ऊरुकम् एतस्य ऊरुकस्य मूल्यं किम्
उत्तमम् एतस्य ऊरुकस्य मूल्यं किम् उत्तमं तदा विक्रेता किं वदति तस्य मूल्यं किम् इति वदति ऊहां करोतु किञ्चित् वदतु तस्य मूल्यं किम्
तस्य मूल्यं
कति रूप्यकाणि
तस्य मूल्यं षट् रूप्यकाणि
उत्तमं तस्य मूल्यं षट् रूप्यकाणि नो चेत् शाटिकायाः मूल्यं किम् किमपि वदतु
एतस्य शाटिकायाः मूल्यं नव रूप्यकाणि
उत्तमं नवरूप्यकाणि अपि च एतस्य युतकस्य मूल्यं किम्
एतस्य युतकस्य मूल्यं नवरूप्यकाणि
उत्तमम् अपि च अत्र ऊरुकं ते ऊरुकमपि क्रेतुमिच्छन्ति अतः ऊरुकस्य मूल्यं किम्
एतस्य ऊरुकस्य युतकं
नो न न न अत्र एतस्य ऊरुकस्य
सप्त रूप्यकाणि
उत्तमं विक्रेता वदति विक्रेता दम्पतिं प्रति वदति आहत्य कति रूप्यकाणि भगिनि टोटल् करोतु आहत्य किमपि वदतु भगिनि आहत्य इन् टोटल्
विंशतिः
रूप्यकाणि तयोः पार्श्वे विंशतिः रूप्यकाणि सन्ति अतः ते किं कुर्वन्ति धनं दत्त्वा तदा पत्नी किं वदति, भोः एतस्याः शाटिकायाः अनुरूपचोलं ददाति वा? भवती जानाति वा अनुरूपचोलं चोलः इत्युक्ते
कः वदति?
कः वदति अनुरूपचोलः इत्युक्ते? उत्तमम्. एतस्याः शाटिकायाः अनुरूपचोलं ददाति वा इति पत्नी वदति. सः विक्रेता किं वदति? आं ददामि. अनन्तरं सः विंशतिरूप्यकाणि स्वीकरोति. अनन्तरं वस्त्राणि स्यूते स्थापयित्वा ददाति. तदेव. अन्यानि वाक्यानि भवन्तः रचितवन्तः चेत् वदन्तु. इफ् यु आलरेडि क्रियेटेड् डिफ़रेण्ट् सेण्टेन्सेस् ऐ वुड् लैक् टु लिसन् फ्रम् यु. कः वदति? भवतां पार्श्वे नूतनानि वाक्यानि सन्ति चेत् वदन्तु. कोऽपि प्रयत्नं कुर्वन्तु अन्यानि वाक्यानि, नो चेत् अग्रिमं सम्भाषणं पठामः. अधुना सः करोति वा? शङ्करन् महोदय, भवान् करोति वा? अन्यानि वाक्यानि रचितवान् वा?
अन्यानि वाक्यानि इन् मै ओन् इमेजिनेशन् भगिनि.
वदतु महोदय.
आचार्यः पूजनं करोतु.
अत्र केवलं वस्त्रापण वस्त्रापणे एकं सम्भाषणमस्ति. चित्रं दृष्ट्वा यदि भवान् अन्यानि वाक्यानि रचितवान् चेत् वदतु. भवतः पार्श्वे नूतनानि वाक्यानि सन्ति वा?
विक्रेता आहाद्य एतस्य चोलस्य चोलस्य शाटिकायां पितकायां ऊर्कायां आहत्य दश शतरूपं शतरूप्यां अस्ति.
अत्र पश्यतु महोदय, शतम् इति पदं सर्वदा नपुंसकलिङ्गे एव भवति. अत्र एतेषां वस्त्राणां मूल्यम् आहत्य शतं रूप्यकाणि. शतं रूप्यकाणि इति वदामः. अस्तु महोदय. अनन्तरम् अहं
सन्देहं सर्वे वदामि चकारः चाटिका स च चोलः च पिदकं च ऊर्कं च अथवा वदतु वा अन्ये अन्यताः एतावत् उदाहरणं उदाहरणः रामलक्ष्मणौ द्विवचने.
महोदय, तत्तु अत्र पश्यतु, तत्तु विषयान्तरमस्ति. वयम् अग्रे गच्छामः. अनन्तरम् अत्र एकम् अन्यं सम्भाषणमस्ति. यदि भवान् केवलं वस्त्रापणचित्रं दृष्ट्वा भवान् कानिचन वाक्यानि रचितुम् इच्छति चेत् वदतु, नो चेत् अग्रे गच्छेम. विषयान्तरमस्ति, भवान् विषयान्तरं वक्तुम्
इच्छति.
सर्वमपि च अन्ते चकारं योजयित्वा रचयामः. अत्र अस्तु महोदय.
अन्यथा अनुरूपचोलं न ददाति.
अनुरूपचोलं न ददाति तत्र न मिलति तस्मिन् आपणे. अनुरूपचोलं न मिलति चेत् विक्रेता न ददाति.
न ददाति
कस्मै कस्मै न ददाति काभ्यां कस्मै न काभ्यां न ददाति ताभ्यां न ददाति. अनन्तरं उत्तमं महोदय. अनन्तरम् अधुना वयं किं कुर्मः इत्युक्ते किञ्चित् म्यूट् करोमि महोदय, केवलं किञ्चित् ध्वनिः अस्ति अतः. अत्र सम्भाषणानन्तरं ते वस्त्राणि स्वीकृतवन्तः. अनन्तरं ते आनन्देन नूतनानि वस्त्राणि स्वीकृत्य गृहं प्रति गच्छतः. गच्छतः इति पदं द्विवचने अस्ति. अनन्तरं वयम् अत्र एकम् अन्यं सम्भाषणं करपत्ररूपेण प्रेषितवती. शाकापणः इति एकं सम्भाषणमस्ति. सर्वे शाकापणः इति सम्भाषणं पुरतः स्थापयन्तु. तदपि आवश्यकं पर्याप्तं मास्तु स्वीकरोति इति पदानि उपयुज्य तत्र सम्भाषणं दत्तमस्ति. अत्र अधुना अत्र येन केनापि क्रमः न आगतः वा? राजीव् महोदय भवान् करोति वा अत्र?
I missed that. Lakshmi bhagini.
अत्र ऐ हाव् सेण्ट् सम् हेण्ड् औट्स् लैक् सम् करपत्राणि. केन् यु प्लीस् लुक् इन् टु द वर्क्शीट्? शाकानि
ऐ गाट् इट्
शाकानि
शाकानि मरीचिका मरीचिका इस् द चिली आम्रं माङ्गो आलबुः आलबुः इस् दट्
किमपि शाकविशेषः. इट् इस् अ स्पेसिफिक् कैण्ड् आफ् शाकविशेषः. इट्स् अ वेजिटेबल्.
कुष्माण्डः उर्वारुकम् भेण्डं
भेण्डं पूर्वम् अन्यं पदमस्ति महोदय, पलाण्डुः. तत्र भेण्डात् पूर्वम् एकम् अन्यं चित्रमस्ति, पलाण्डुः.
पलाण्डुः पलाण्डुः भेण्डमः भेण्डम् रक्तफलं हरितं पटोलः वृन्ताकम् आलुकं लसुनं बिम्बीफलं करवेलः शिम्बिका चूर्णः गुञ्जनकं शाकपुष्पं छत्राकं
छत्राकं चित्राणि दृष्ट्वा भवान् एतानि चित्राणि
मश्रूम्
अहं चिन्तयामि. चित्राणि दृष्ट्वा भवान् अवगतवान् वा एतानि शाकानि कानि? Did you understand what are these vegetables by looking at the pictures?
Yes.
Uttamam. Anantram phalani.
Except patolaha.
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 Snake gourd.
That's beans, right? That's same beans.
Patolaha, it is snake gourd, right?
Okay.
तदेव शाकविशेषः. अनन्तरं फलानि फलानि यस्य कस्यापि क्रमः न आगतः वा इदानीं पर्यन्तं? एनि आफ् यू डिडिन्ट् गेट् ए चान्स् टु पार्टिसिपेट् इन् द क्लास्? प्लीस् अनौन्स्. राजीव् महोदय भवान् एव करोतु अत्र फलानि
फलानि फलानि आम्रं रक्तफलं जम्बीरं
जम्बीरं
जम्बीरं कलिङ्गं जम्बुफलं द्राक्षा मधुकर्कटी सेवम् अनासम्
अनानसम्
ओ सर् अनानसम्
उत्तमम् उत्तमं
पंसं नारङ्गफलं कदलीफलं खजूरं काजवम् आमकलम् आमलकम्
आमलकम् उत्तमम् अनन्तरम् अत्र अनन्तरं पुष्पाणि सन्ति पुष्पाणि अपि वदतु दृष्ट्वा एकमेकं पुष्पं
कर्णिकारः कमलं पारन्ति उत्तफलम्
उल्पलम्
ओ सर् उल्पलं सेवन्तिका द्रोणपुष्पं ओलिया चम्पकं सूर्यकान्तिः पाटलपुष्पं जपा शतकुम्भ मल्लिका नागपुष्पं मन्दारं अशोकम्
उत्तमम् इदानीं पर्यन्तं भवान् कानिचन पदानि पठितवान् त्रीणि वाक्यानि रचयतु महोदय एकमेकं पदं स्वीकृत्य केवलं त्रीणि वाक्यानि रचयतु जस्ट् टेक् त्री वर्ड्स् फ्रम् दिस् लिस्ट् अण्ड् क्रियेट् त्री सेण्टेन्सेस्
ओके अहम् आम्रं खादामि
उत्तमम्
एषा रक्तफलं न खादति
उत्तमम्
What, how do you say favorite? How do you say favorite? My favorite.
Favorite.
Pasand?
Rochite. Mahyam rochite.
Aham. Roch. I can't make it. Like my favorite flower is rose.
Rose. Rose. Tasya nama kim sanskrita bhashayam?
Aham. Favorite is... I forgot what do you say favorite?
Atra vadatu. Yadi bhavan kamalam ichati chet... अहं कमलम् इच्छामि
अहं कमलम् इच्छामि
नो चेत् मह्यं कमलं रोचते मह्यं कमलम् अतीव रोचते
अतीव रोचते
तदपि समीचीनम् अहं कमलम् इच्छामि
अहं कमलम्
अथवा मह्यं कमलम् अतीव रोचते अत्र रोस् इत्युक्ते अत्र संस्कृतभाषायां किं दत्तमस्ति पाटलपुत्रं पाटलपुष्पं
पाटलपुष्पं
भवान् करोतु मह्यं
मह्यं
मह्यं मीन्स् फर् मी मह्यं
मह्यं पाटलपुष्पं पाटलपुष्पम् अति रोचते.
उत्तमं.
रोचितामि.
अत्र मह्यं पाटलपुष्पम् अतीव रोचते.
अतीव रोचते.
उत्तमम् उत्तमं महोदय, धन्यवादः. अनन्तरम् अधुना वयं शाकापणः इति सम्भाषणं कुर्मः. अत्र राघवन् महोदय भवान् अस्ति वा? नास्ति चेत् अत्र शकुन्तला भगिनी भवती कर्तुमिच्छति वा? अस्तु. नो चेत् अधुना वयं किं कुर्मः इत्युक्ते शाकापणम् इति सम्भाषणं पश्यामः. अत्र लक्ष्मीभगिनी आपणिकः, अत्र समीर् महोदयः महिला, समीर् महोदयः आपणिकः, लक्ष्मीभगिनी महिला, द्वयोर्मध्ये सम्भाषणम् अधुना शृणुमः. कुर्वन्तु.
आपणिकः आगच्छतु, किम् आवश्यकम्?
महिला, एकस्य कूष्माण्डस्य एक किलो परिमितस्य कति रूप्यकाणि?
आपणिका, तस्य किलो परिमितस्य अष्ट रूप्यकाणि.
महिला, अर्ध किलो परिमितस्य आकुलं ददातु.
पुनः वदतु भगिनि.
अर्ध किलो परिमितम् आकुलं ददातु.
समीकरोतु. आलुकम्, आलुकं ददातु.
आलुकं ददातु.
उत्तमं. करोतु महोदय.
आपणिकः कूष्माण्डः मास्तु वा?
महिला, किलो द्वय मितं कूष्माण्डम् एककिलो परिमितं गृजनकम् अर्धकिलो महामरीचिकं च ददातु. वृन्ताकम् अपि एककिलो परिमितं विण्डीनकानि नष्टानि खलु, उत्तमानि न आनीतवान् किम्?
आपणकः उत्तमानि विण्डिनकानि न्यूते एवं नास्ति.
स्यूते एव, अत्र पश्यतु महोदय, उत्तमानि विण्डीनकानि स्यूते एव सन्ति.
एव सन्ति. आवश्यकं किम्?
महिला, किलो मात्र परिमितं ददातु. आहत्य कति रूप्यकाणि इति वदतु. शीघ्रं गन्तव्यम्.
आपणिकः आवत्य पञ्च सप्ततिरूप्यकाणि कारवेल्ल मास्तु वा?
महिला, तिक्तम् इत्यतः कारवेल्लं मम गृहे न खादन्ति. पर्याप्तम्. अस्मिन् स्यूते सर्वाणि स्थापयतु. धनं स्वीकरोतु.
आपणिकः परिवर्तः नास्ति किम्? अस्तु, स्वीकरोतु.
उत्तमम्. इदानीं पर्यन्तं भवन्तः सम्भाषणं पठितवन्तः. अधुना वयं किं कुर्मः इत्युक्ते किञ्चित् पङ्क्तिशः, लैन् बै लैन् पङ्क्तिशः पठित्वा वयम् अवगन्तुं शक्नुमः. प्रथमतया आपणिकः अस्ति, अपि च महिला अस्ति. साधारणतया यत्र शाकानां विक्रयणं करोति तस्य नाम किं? शाकानां विक्रयणं भवति तस्य नाम किम्?
आपणिकः
भगिनी, तस्य नाम इत्युक्ते अत्र शाकानां विक्रयणं कुत्र भवति?
विक्रेता.
అంటే వేర్ డూ యూ జనరలీ వేర్ ద వెజిటబుల్స్ ఆర్ సోల్డ్, వాట్ డూ యూ కాల్ ద నేమ్ ఆఫ్ దట్? ఆపణః ఇత్యుక్తే యత్ర యత్ర శాకానాం విక్రయణం భవతి తస్య నామ అస్తి ఆపణః. ఆపణః ఇత్యుక్తే స్టోర్. తథా ఏవ యః ఆపణే కార్యం కరోతి सः आपणिकः. यत्र क्रयविक्रयणं भवति सः आपणः. यः आपणे कार्यं करोति सः आपणिकः. तथा एव यत्र बहवः आपणाः सन्ति तस्य नाम अस्ति विपणिः. विपणिः इत्युक्ते कः वदति आङ्ग्लभाषायां किम्? बजार्. यत्र बहवः आपणाः सन्ति तस्य नाम अस्ति विपणिः. विपण्यां बहवः आपणाः सन्ति. आपणे आपणिकः कार्यं करोति. अधुना वयम् आपणं गत्वा, शाकापणं गत्वा तत्र एकं सम्भाषणं पठितवन्तः. अत्र सः वदति आगच्छतु, किम् आवश्यकम्? आगच्छतु, लोट्लकारे अस्ति. किम् आवश्यकम् इति आपणिकः वदति. तदा महिला किं वदति? एतस्य कूष्माण्डस्य एककिलो परिमितस्य कति रूप्यकाणि इति वदति. अत्र कति रूप्यकाणि इत्युक्ते किम्? आङ्ग्लभाषायां वदन्तु. कति रूप्यकाणि? How much? अत्र एककिलो परिमितस्य, एककिलो परिमितस्य इत्युक्ते किं भगिनि?
फोर् वन् किलो,
रैट्? मीन्स् पर् वन् किलो. एककिलो परिमितस्य, एतस्य कूष्माण्डस्य एककिलो परिमितस्य कति रूप्यकाणि? भवती एव वदतु अत्र एतस्य कूष्माण्डस्य एककिलो परिमितस्य एतेषां पदानां मध्ये सम्बन्धः अस्ति. इत्युक्ते अत्र कूष्माण्डः इति पदमस्ति, तस्य षष्ठीविभक्तेः रूपं कूष्माण्डस्य. अपि च विशेषणानि सन्ति एतस्य कूष्माण्डस्य. अपि च एतस्य कूष्माण्डस्य एककिलो परिमितस्य कति रूप्यकाणि? कति रूप्यकाणि? आपणिकः तदा किं वदति? वदतु तृतीयं वाक्यं किमस्ति लक्ष्मी भगिनि? संस्कृतभाषायां वदतु. एतस्य वदतु
एतस्य कूष्माण्डस्य
एककिलो परिमितस्य
एककिलोपरिमितस्य अष्टरूप्यकाणि.
उत्तमम्. एतस्य कूष्माण्डस्य एककिलोपरिमितस्य अष्टरूप्यकाणि. तथा महिला किं वदति?
अर्धकिलोपरिमितम् आलुकं ददातु.
आलुकं ददातु.
किमि हाफ् ए किलो आफ् पोटेटोस्.
उत्तमम् उत्तमम्. अर्धकिलो परिमितम् आलुकं ददातु. तदा आपणिकः किं वदति?
कूष्माण्डः मास्तु वा? यु डोण्ट् यु वाण्ट् कूष्माण्ड? ऐ डोण्ट् नो वाट् इस् कूष्माण्ड.
कूष्माण्डः इत्युक्ते कः वदति? कोऽपि जानाति वा? पम्प्किन्. उत्तमं. कूष्माण्डः इत्युक्ते पम्प्किन्. तदा महिला किं वदति? वदतु किलोद्वयमितं कूष्माण्डम्, एककिलो परिमितं गृञ्जनकम्, अर्धकिलो महामरीचिकां च ददातु. शङ्करन् महोदय, भवान् उक्तवान् अत्र च इत्यस्य प्रयोगं कथं कुर्मः इत्युक्ते अन्ते केवलं चकारं योजयामश्चेत् पर्याप्तं भवति. अत्र अत्र वाक्यं पश्यतु, किलोद्वयमितं कूष्माण्डम्, एककिलोपरिमितं गृञ्जनकम्, अर्धकिलोपरिमितं महामरीचिकां च ददातु. भगिनी अत्र वदतु महोदय.
सर्वाणां पदार्थानां केवलम् एकचकारमेव अन्तिमम् उपयोगितवान्.
अत्र वदतु महोदय, वदतु.
किलोद्वयं
किलोद्वयमिति
युष्मिते 2 किलो कूष्माण्डं ददाति.
उत्तमम्. अनन्तरम्
1 किलो परिमितं गृञ्जनकं.
गृञ्जनकम् इत्युक्ते केरेट्स्.
गृञ्जनकम् इत्युक्ते किं किं भवति किं भगिनि?
गृञ्जनकम् इत्युक्ते केरेट्स्.
द्वयमितम् इत्युक्ते
कः वदति पुनः?
द्वयमितं
किलोद्वयमितम् इत्युक्ते किलोद्वयं. किलोद्वयम् इत्युक्ते 2 kgs.
किलोद्वयं 2 kilos.
टु किलोस्. किलोद्वयमितं कूष्माण्डं ददातु. अनन्तरम् उमाशङ्कर् महोदय, भवान् करोतु. अनन्तरं किम् अस्ति अत्र?
किलो 1 किलो परिमितं गुञ्जनकम्, अर्धकिलो महामरीचिकां च ददातु.
महामरीचिका इत्युक्ते किं जानाति वा?
महामरीचिका
ग्रीन् पेपर्.
लैक् बिग् बेल् पेपर्. महामरीचिकां च ददातु. अनन्तरं पठतु अन्यम् अनन्तरं वाक्यम् अग्रे पठतु.
वृन्तकम् अपि 1 किलो परिमितं.
वृन्ताकम् अपि 1 किलो परिमितं. वृन्ताकम् अपि 1 किलो परिमितं ददातु. वृन्ताकम् इत्युक्ते किम्?
वृन्ताकम् ब्रिञ्जल्.
ब्रिञ्जल् 1 किलो परिमितं ददातु. अनन्तरं पठतु.
विण्डिनकानि नष्टानि खलु. इस् इट् ओल्ड्?
अत्र अत्र पश्यतु महोदय, अत्र महिला पृच्छति. किं पृच्छति? महिला आपणिकं प्रति पृच्छति, विण्डिनकानि नष्टानि खलु, उत्तमानि न आनीतवान् किम्? विण्डीनकम् अत्र विण्डीनकम् इत्युक्ते लेडीस् फिङ्गर्. विण्डीनकानि नष्टानि खलु. अत्र नष्टानि इत्युक्ते किम्? नष्टानि इत्युक्ते विण्डीनकानि उत्तमानि न सन्ति, ते सम्यक् न सन्ति. दट्स् स्पोयिल्ड्. विण्डीनकानि उत्तमानि न खलु, नष्टानि खलु, उत्तमानि न आनीतवान् किम् इति महिला आपणिकं प्रति पृच्छति. तदा आपणिकः किं वदति?
उत्तमानि विण्डिनकानि स्यूते एव सन्ति. आवश्यकं किम्
इत्युक्ते स्यूते एव सन्ति. स्यूतः अत्र उत्तमानि विण्डिनकानि स्यूते एव सन्ति. आवश्यकं किम्? उत्तमम्. अवगतवान् वा? उत्तमम्. पठतु, अग्रे पठतु.
किलो मात्र परिमितं ददातु. आगत्य कति रूप्यकाणि इति वदतु. शीघ्रं गन्तव्यम्.
उत्तमम्. आहत्य कति रूप्यकाणि इति वदतु. आहत्य इत्युक्ते
टोटल्.
इन् टोटल् आहत्य कति रूप्यकाणि इति वदतु. शीघ्रं गन्तव्यम्. वदतु अनन्तरं किमस्ति
आगत्य पञ्चशब्द त्रिरूप्यकाणि पञ्चशब्द त्रिरूप्यकाणि
आहत्य पञ्चसप्ततिः रूप्यकाणि पञ्चसप्ततिः कः वदति पञ्चसप्ततिः इत्युक्ते कति रूप्यकाणि कोऽपि जानाति वा
65
अत्र पश्यतु महोदय उत्तमं सप्ततिः इत्युक्ते 70 पञ्चसप्ततिः पञ्चसप्ततिः इत्युक्ते 75 अनन्तरं करोतु
कारवेल्लं मास्तु वा
कारवेल्लं मास्तु वा कारवेल्लम् इत्युक्ते अत्र जानाति वा
कारवेल्लम् इट्स् अ करिवेप्ले करिपत्ता
न महोदय अत्र कारवेल्लम् इत्युक्ते बिटर् गोड्
ओ ओके
अत्र अनन्तरं पठतु
तिक्तम् इत्यतः कारवेल्लं मम गृहे न खादति पर्याप्तम् अस्मिन् स्यूते सर्वाणि स्थापयतु धनं स्वीकरोतु
उत्तमम् अत्र अत्र महिला वदति कारवेल्लं तिक्तं कारवेल्लं तिक्तम् इत्युक्ते बिटर् गोड् इस् बिटर् इन् टेस्ट् सो कारवेल्लं तिक्तम् इत्यतः कारवेल्लं मम गृहे न खादन्ति अतः पर्याप्तं सर्वाणि शाकानि एतस्मिन् स्यूते स्थापयतु धनं स्वीकरोतु भोः सा महिला वदति आपणिकं प्रति इत्युक्ते तस्याः गृहे किं कोऽपि कारवेलं न खादति किमर्थं कारवेलं तिक्तम् अतः कोऽपि न खादति तस्याः गृहे भवान् खादति वा कारवेलं खादति वा भवान् वदतु संस्कृतभाषायां वदतु
आं कारवेल्लं खादामि अहं कारवेल्लं खादामि
उत्तमं तदा आपणिकः किं वदति अन्तिमं वाक्यं पठतु
परिवर्तक नासीत् किम् अस्तु स्वीकरोतु
अत्र परिवर्तः नास्ति किम् इति सः पृच्छति परिवर्तः नास्ति किम् अत्र परिवर्तः इत्युक्ते किं कः वदति इत्युक्ते अत्र चेञ्ज् अत्र आहत्य शाकानां मूल्यं पञ्चसप्ततिः रूप्यकाणि आपणिकः वदति भवतः पार्श्वे परिवर्तः नास्ति वा महोदय परिवर्तः अस्ति चेत् ददातु इफ् यु हाव् सम् चेञ्ज् गिव् मी द चेञ्ज् अस्तु शाकानि स्वीकरोतु तथा वदति भवन्तः सर्वे अपि गृहं गत्वा एतद् अभ्यासं कुर्वन्तु आवश्यकं मास्तु पर्याप्तं स्वीकरोतु एतानि पदानि उपयुज्य अपि च भवन्तः पार्श्वे बहूनि पदानि सन्ति शाकानां नामपदानि सन्ति अपि च पुष्पाणि तेषां नामानि सन्ति अपि च फलानां नामानि सन्ति भवन्तः सर्वे एतानि पदानि उपयुज्य स्वस्य गृहे अभ्यासं कुर्वन्तु किञ्चित् अभ्यासं कुर्वन्तु यदि भवन्तः इच्छन्ति चेत् वयं शीघ्रं सङ्ख्यां पठामः नो चेत् अधुना समापयामः हस्मुख् महोदय भवान् करोति वा शीघ्रम् अत्र सङ्ख्याः इति एकं करपत्रमस्ति
You want me to read the numbers?
आं महोदय एकवारम्
एकं द्वे त्रीणि चत्वारि Is that all? I mean, that's how you want me to read?
अस्तु महोदय तथा एव
ओके ओके षट् सप्त अष्ट नव दश एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश नवदश विंशतिः एकविंशतिः द्वाविंशतिः त्रयोविंशतिः चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः नवविंशतिः त्रिंशत् एकत्रिंशत् द्वात्रिंशत्
त्रिंशत् अत्र त्रिंशत् त्रिंशत् एकत्रिंशत् द्वात्रिंशत् करोतु
एकत्रिंशत् द्वात्रिंशत् त्रयस्त्रिंशत् चतुस्त्रिंशत् पञ्चत्रिंशत् षट् षट्त्रिंशत् सप्तत्रिंशत् अष्टत्रिंशत् नवत्रिंशत् चत्वारिंशत्
उत्तमम्
एकचत्वारिंशत् द्विचत्वारिंशत् त्रिचत्वारिंशत् चतुश्चत्वारिंशत् पञ्चचत्वारिंशत् षट्चत्वारिंशत् सप्तचत्वारिंशत् षट्चत्वारिंशत् सप्तचत्वारिंशत् अष्टचत्वारिंशत् नवचत्वारिंशत् पञ्चाशत्
उत्तमं महोदय, धन्यवादः. कादम्बरी भगिनी भवती करोति वा अन्यानि अन्याः सङ्ख्याः वदति वा? करोतु.
एकपञ्चाशत् द्विपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपञ्चाशत् अष्टपञ्चाशत् नवपञ्चाशत् षष्टिः.
उत्तमम् उत्तमं भगिनि, धन्यवादः. अनन्तरं शङ्करन् महोदय, भवान् करोति वा अन्यान् अन्याः करोति वा महोदय? अस्ति वा? नो चेत् सुब्बारो महोदय, भवान् करोतु, शीघ्रं समापयामः.
एकषष्टिः द्विषष्टिः त्रिषष्टिः चतुष्षष्टिः पञ्चषष्टिः षट्षष्टिः सप्तषष्टिः अष्टषष्टिः नवषष्टिः सप्ततिः एकसप्ततिः द्विसप्ततिः त्रिसप्ततिः चतुस्सप्ततिः पञ्चसप्ततिः षट्सप्ततिः सप्तसप्ततिः अष्टसप्ततिः नवसप्ततिः अशीतिः एकाशीतिः द्व्यशीतिः
अत्र पश्यतु महोदय, द्व्यशीतिः द्व्यशीतिः
द्व्यशीतिः द्व्यशीतिः त्र्यशीतिः चतुरशीतिः
उत्तमं
पञ्चाशीतिः षडशीतिः सप्ताशीतिः अष्टाशीतिः नवाशीतिः नवतिः एकनवतिः द्विनवतिः त्रिनवतिः चतुर्नवतिः पञ्चनवतिः षण्णवतिः सप्तनवतिः अष्टनवतिः नवनवतिः शतम्.
उत्तमं, धन्यवादः महोदय. भवन्तः सर्वे अपि गृहं गत्वा गृहे पुनः एकवारं सङ्ख्यानां पुनःस्मरणं कुर्वन्तु. अत्र एकं चित्रमस्ति, चित्रं पूरयन्तु. अत्र एकं चित्रमस्ति, सङ्ख्याः योजयित्वा कः प्राणी अस्ति इति जानातु. तत्र एकः प्राणिः अस्ति, प्राणी अस्ति, तत् किम् इति ज्ञातुमिच्छन्ति चेत् तत् चित्रं पूरयन्तु. तस्याः कृते सङ्ख्यानां आवश्यकता अस्ति. पुनः एकवारं गृहे सङ्ख्यानां पुनस्मरणं कुर्वन्तु. अधुना समापयामः. सर्वेषां धन्यवादः, नमस्कारः. अग्रिमे सप्ताहे मिलामः. धन्यवादः.
धन्यवादः भगिनी.
धन्यवादः.
धन्यवादः.